हस्तस्य भूषणं दानं सत्यं कंठस्य भूषणं श्रोत्रस्य भूषणं शास्त्रं भूषणे किं प्रयोजनम्। काकः कृष्णः पीककृष्णः को भेद काकपीकयो वसंत समये प्राप्ते काकः काकः पीकपीकः। यथा चित्तं तथा वाचो यथा वाचस्तथा क्रिया चित्ते वाचि क्रियायां च साधुनामेकरूपता। सर्वतीर्थमयी माता सर्वदेवमय पिता मातरं पीतरं तस्मात् सर्वयत्नेन पूजये। सुखार्थी त्यजेत विद्यां विद्यार्थी त्यजेत सुखम्। सुखार्थी न कुतो विद्या विद्यार्थी न कुतो सुखम्।